हरिः ॐ विमवतरगीतैव महतो नगाधीशाच्छ्रीमद्रमणमुनिरूपाज्जनिमति पथो वाणीरूपाद्गणपतिकवेर्भक्तहृदयम् समुद्रम् संयाति प्रबलमलहारिण्यनुपदम् अथ प्रथमोऽध्यायः उपासनप्राधान्यनिरूपणम् महर्षिम् रमणम् नत्वा कार्तिकेयम् नराकृतिम् मतन्तस्य प्रसन्नेन ग्रन्थेनोपनिबध्यते ईशपुत्रशके रामभूमिनन्दधरामि ते एकोनत्रिंशद्दिवसे द्वादशे मासि शीतले उपविष्टेषु सर्वेषु शिष्येषु नियतात्मसु भगवन्तमृषिम् सोऽहमपृच्छम् निर्णयाप्तये प्रथमप्रश्नः सत्यासत्यविवेकेन मुच्यते केवलेन किम् उदाहो बन्धहानाय विद्यते साधनान्तरम् द्वितीयप्रश्नः किमलम् शास्त्रचर्चैव जिज्ञासूनाम् विमुक्तये यथा गुरूपदेशम् किमुपासनमपेक्षते तृतीयप्रश्नः स्थितप्रज्ञमात्मानम् किम् समर्थयेत् विजित्वा परिपूर्णत्वम् ज्ञानस्योपरते ऋता चतुर्थप्रश्नः ज्ञानिनम् केन लिङ्गेन ज्ञातुम् शक्ष्यन्ति कोविदाः पञ्चमप्रश्नः ज्ञानायैव समाधिः किम् कामायाप्युतकल्पते षष्ठः प्रश्नः कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि स कामो मुष्य साफल्यमधिगच्छति वा न वा एवम् मम गुरुः प्रश्नानाकन्यकरुणानिधिः अब्रवीत् संशयच्छेदि रमणो भगवान् ऋषिः प्रथमप्रश्नस्योत्तरम् मोचयेत् सकलान् बन्धानात्मनिष्ठैव केवलम् सत्यासत्यविवेकम् तु प्राहुर्वैराग्यसाधनम् सदा तिष्ठति गम्भीरो ज्ञानी केवलमात्मनि नासत्यम् चिन्तयेद्विश्वम् न वा स्वस्य तदन्यताम् द्वितीयप्रश्नस्योत्तरम् न संसिद्धिर्विजिज्ञासोः केवलम् शास्त्रचर्चया उपासनम् विना सिद्धिर्नैव स्यादिति निर्णयः अभ्यासकाले सहजाम् स्थितिम् प्राहुरुपासनम् सिद्धिम् स्थिराम् यदा गच्छेत् सैव ज्ञानम् तदोच्यते विषयान् सम्परित्यज्य स्वस्वभावेन संस्थितिः ज्ञानज्वालाकृतिः प्रोक्ता सहजा स्थितिरात्मनः तृतीयप्रश्नस्योत्तरम् निर्वासनेन मौनेन स्थिरायाम् सहजस्थितौ ज्ञानी ज्ञानिनमात्मानम् निःसन्देहः समर्थयेत् चतुर्थप्रश्नस्योत्तरम् सर्वभूतसमत्वेन लिङ्गेन ज्ञानमोह्यताम् पञ्चमप्रश्नस्योत्तरम् कामारब्धः समाधिस्तु कामम् फलति निश्चितम् षष्ठप्रश्नस्योत्तरम् कामेन योगमभ्यस्य स्थितप्रज्ञो भवेद्यदि स कामो मुष्य साफल्यम् गच्छन्नपि न हर्षयेत् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे उपासनप्राधान्यनिरूपणम् नाम प्रथमोऽध्यायः अथ तृतीयोऽध्यायः मार्गत्रयकथनम् ईशपुत्रशके बाणभूमिनम् दधरामि ते चातुर्मास्ये जगौसारम् सङ्ग्रह्य भगवान् ऋषिः हृदयकुहरमध्ये केवलम् ब्रह्ममात्रम् ह्यहमहमिति साक्षादात्मरूपेण भाति दिविषमनसा स्वम् चिन्वतामज्जता वा पवनचलनरोधादात्मनिष्ठो भवत्वम् श्लोकम् भगवतो वक्त्रान्महर्षेरिममुद्गतम् श्रुत्यन्तसारम् यो वेद संशयो नास्य जातुजित् अत्र श्लोके भगवता पूर्वार्धे स्थानमीदम् शारीरकस्य दृश्येऽस्मिन् शरीरे पाञ्चभौतिके तत्रैव लक्षणम् चोक्तम् द्वैतमीशा च वारितम् उक्तम् चाप्यपरोक्षत्वम् नानालिङ्गनिबर्हणम् उपदेशो द्वितीयार्धे शिष्याभ्यासकृते कृतः त्रेधा भिन्नेन मार्गेण दत्त्वा दैत्यम् समीयुषा उपायो मार्गणाधिक्यः प्रथमः सम्प्रकीर्तितः द्वितीयो मज्जनाभिख्यः प्राणरोधस्तृतीयकः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्ते वासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मार्गत्रयकथनम् नाम द्वितीयोऽध्यायः अथ तृतीयोऽध्यायः मुख्यकर्तव्यनिरूपणम् दैवरातस्य संवादमाचार्यरमणस्य च निबध्नीमस्तृतीयेऽस्मिन्नध्याये विदुषाम् मुदे दैवरात उवाच किम् कर्तव्यम् मनुष्यस्य प्रधानमिह संस्कृतौ एकम् निर्धार्य भगवांस्तन्मे व्याख्यातुमर्हति भगवानुवाच स्वस्य स्वरूपम् विज्ञेयम् प्रधानम् महदिच्छत प्रतिष्ठायत्र सर्वेषाम् फलानामुदकर्मणाम् दैवरात उवाच स्वस्य स्वरूपविज्ञाने साधनम् किम् समासतः सिद्ध्येत्केन प्रयत्नेन प्रत्यग्दृष्टिर्महीयसि भगवानुवाच विषयेभ्यः परावृत्यवृत्तेः सर्वाः प्रयत्नतः विमर्शे केवलम् तिष्ठेदचले निरुपाधिके स्वस्य स्वरूपविज्ञाने साधनम् तत्समासतः सिद्ध्येत्तेनैव यत्नेन प्रत्यग्दृष्टिर्महीयसि दैवरात उवाच यावत्सिद्धिर्भवेन्द्रणाम् योगस्य मुनिकुञ्जरा तावन्तम् नियमाः कालम् किम् यत्नमुपकुर्वते भगवानुवाच प्रयत्नमुपकुर्वन्ति नियमायुञ्जताम् सताम् सिद्धानाम् कृतकृत्यानाम् गलन्ति नियमाश्रयम् दैवरात उवाच केवलेन विमर्शेन स्थिरेण निरुपाधिना यथा सिद्धिस्तथा मन्त्रैर्जप्तैः सिद्धिर्भवेन्न वा भगवानुवाच अचञ्चलेन मनसा मन्त्रैर्जप्तैर्निरन्तरम् सिद्धिस्याच्छर्धधानानाम् जप्तेन प्रणवेन वा वृत्तिर्जपेन मन्त्राणाम् शुद्धस्य प्रणवस्य वा विषयेभ्यः परावृत्ता स्वस्वरूपात्मिका भवेत्। ईशपुत्रशके शैलभूमिनम् दधरामि ते सप्तमे सप्तमे सोऽयम् संवादो भवदद्भुतः। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्देवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मुख्यकर्तव्यनिरूपणम् नाम तृतीयोऽध्यायः। अथ चतुर्थोऽध्यायः ज्ञानस्वरूपकथनम्। प्रथमप्रश्नः, अहम् ब्रह्मास्मीति वृत्तिः किम् ज्ञानम् मुनिकुञ्जर? उत ब्रह्माहमिति धीर्धीरहम् सर्वमित्युत? अथवा सकलम् चैतद्ब्रह्मेति ज्ञानमुच्यते? अस्माद्वृत्तिचतुष्काद्वा किन्नु ज्ञानम् विलक्षणम्? अस्योत्तरम्, इमम् मम गुरुः प्रश्नमन्ते वासिन आदरात्। आकन्यरमणो वाक्यमुवाच भगवान् मुनिः, वृत्तयो भावना एव सर्वा एतान संशयः। स्वरूपावस्थितिम् शुद्धाम् ज्ञानमाहुर्मनीषिणः। गुरोर्वचस्तदा कन्यसंशयच्छेदकारकम्। अपृच्छम् पुनरेवाहमन्यम् संशयमुद्गतम्। द्वितीयः प्रश्नः, प्रत्यव्याप्यम् भवेद् ब्रह्मनवानाथतपस्विनाम्। इमम् मे हृदि सञ्जातम् संशयम् छेत्तुमर्हसि। तमिमम् प्रश्नमाकर्ण्यमित्रमङ्घ्रिजुषा ऋषिः। अभिषिच्य कटाक्षेण मामिदम् वाक्यमब्रवीत्। अस्योत्तरम्, स्वात्मभूतम् यदि ब्रह्म ज्ञातुम् वृत्तिः प्रवर्तते, स्वात्माकारा तदा भूत्वा न पृथक् प्रतिष्ठति। अयम् प्रागुक्त एवाब्धे सप्तमेत्येकविंशके अभवन्नौमितग्रन्थः संवादो रोमहर्षणः। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानस्वरूपकथनम् नाम चतुर्थोऽध्यायः। अथ पञ्चमोऽध्यायः, हृदयविद्या। प्रागुक्तेऽर्देष्टमे मासि नवमे दिवसे निशि उपन्यसितवान् सम्यगुद्दिश्य हृदयम् मुनिः। निर्गच्छन्ति यतः सर्वा वृत्तयो देहधारिणाम्। हृदयम् तत्समाख्यातम् भावनाकृतिवर्णनम्। अहम् वृत्तिः समस्तानाम् वृत्तीनाम् मूलमुच्यते। निर्गच्छति यतो हन्धेर्हृदयम् तत्समासतः। हृदयस्य यदि स्थानम् भवेच्चक्रमनाहतम्। मूलाधारम् समारभ्य योगस्योपक्रमः कुतः? अन्यदेव ततो रक्तपिण्डाद्हृदयमुच्यते। अयम् हृदिति वृत्त्या तदात्मनो रूपमीरितम्। तस्य दक्षिणतो धाम हृत्पीठेनैव वामतः। तस्मात् प्रवहति ज्योतिः सहस्रारम् सुषुम्नया। सर्वम् देहम् सहस्रारात् तदा लोकानुभूतयः। ताः प्रपश्यन् विभेदेन संसारी मनुजो भवेत्। आत्मस्थस्य सहस्रारम् शुद्धम् ज्योतिर्मयम् भवेत्। तत्र जीवेन्न सङ्कल्पो यदि सान्निध्यतः भवेत्। विज्ञायमानविषयम् सन्निकर्षेण यद्यपि न भवेद्योगभङ्गाय भेदस्याग्रहणे मनः। गृह्णतोऽपि स्थिरैकाधीः सहजा स्थितिरुच्यते। निर्विकल्पः समाधिस्तु विषया सन्निधौ भवेत्। अण्डम् वपुषि निःशेषम् निःशेषम् हृदये वपुः, तस्मादण्डस्य सर्वस्य हृदयम् रूपसङ्गः। भुवनम् मनसो नान्यदन्यन्न हृदयान्मनः, अशेषा हृदये तस्मात्कथा परिसमाप्यते। कीर्त्यते हृदयम् पिण्डे यथाण्डे भानुमण्डलम्, मनः सहस्रारगतम् बिम्बम् चान्द्रमसंयथा। यथा ददाति तपनस्तेजः कैरवबन्धवे, इदम् वितरति ज्योतिर्हृदयम् मनसे तथा। हृद्यसन्निहितो मर्त्यो मनः केवलमीक्षते, असन्निकर्षे सूर्यस्य रात्रौ चन्द्रे यथा महः। अपश्यंस्तेजसो मूलम् स्वरूपम् सत्यमात्मनः, मनसा च पृथक् पश्यन् भावान् भ्राम्यति पामरः। हृदि सन्निहितो ज्ञानी लीनम् हृदय तेजसी, ईक्षते मानसम् तेजो दिवाभानाविवैन्दवम्। प्रज्ञानस्य प्रवेत्तारो वाच्यमर्थम् मनो विदुः, अर्थम् तु लक्ष्यम् हृदयम् हृदयान्नापरः परः। दृग्दृश्यभेदधीरेषा मनसि प्रतिष्ठति, हृदये वर्तमानानाम् दृग्दृश्यम् चैकताम् व्रजेत्। मूर्च्छा निद्राति सन्तोषशोकावेशभयादिभिः, निमित्तैराहता वृत्तिस्वस्थानम् हृदयम् व्रजेत्। तदा न ज्ञायते प्राप्तिर्हृदयस्य शरीरिणा, विज्ञायते समाधौ तु नाम भेदो निमित्ततः। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे हृदयविद्या नाम पञ्चमोऽध्यायः। अथ षष्ठोऽध्यायः मनो निग्रहोपायः। निरोप्य हृदयस्यैवम् तत्त्वम् तत्त्वविदाम्बरः, मनसो निग्रहोपायमवदद्रमणो मुनिः। नित्यवृत्तिमताम् नृणाम् विषयासक्तचेतसाम्, वासनानाम् परीयस्वान्मनो दुर्निग्रहम् भवेत्। चपलम् तन्निगृह्णीयात् प्राणरोधेन मानवः, पाशबद्धो यथा जन्तुस्तथा चेतो न चेष्टते। प्राणरोधेन वृत्तीनाम् निरोधः साधितो भवेत्, वृत्तिरोधेन वृत्तीनाम् जन्मस्थाने स्थितो भवेत्। प्राणरोधश्च मनसा प्राणस्य प्रत्यवेक्षणम्, कुम्भकम् सिध्यति ह्येवम् सततप्रत्यवेक्षणात्। येषाम् नेतेन विधिना शक्तिः कुम्भकसाधने, पठयोगविधानेन तेषाम् कुम्भकमिष्यते। एकदा रेचकम् कुर्यात् कुर्यात् पूरकमेकदा, कुम्भकम् तु चतुर्वारम् नाडीशुद्धिर्भवेत्ततः। प्राणो नाडीषु शुद्धासु निरुद्धः क्रमशो भवेत्। प्राणस्य सर्वधारोधः शुद्धम् कुम्भकमुच्यते। त्यागम् देहात्मभावस्य रेचकम् ज्ञानिनः परे, पूरकम् मार्गणम् स्वस्य कुम्भकम् सहजस्थितिम्। जपेन वाथमन्त्राणाम् मनसो निग्रहो भवेत्, मानसेन तदा मन्त्रप्राणयोरेकता भवेत्। मन्त्राक्षराणाम् प्राणेन सायुज्यम् ज्ञानमुच्यते। सहजस्थितये ध्यानम् दृढभूमिप्रकल्पते, सह वासेन महताम् सतामारूढचेतसाम्। क्रियमाणेन वा नित्यम् स्थाने लीनम् मनो भवेत् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे मनोनिग्रहोपायो नाम षष्ठोऽध्यायः अथ सप्तमोऽध्यायः आत्मविचाराधिकारितदङ्गनिरूपणम् भारद्वाजस्य वैकार्ष्णेराचार्यरमणस्य च अध्याये कथ्यते श्रेष्ठः संवाद इह सप्तमे कार्ष्णिरुवाच रूपमात्मविचारस्य किन्नु किम् वा प्रयोजनम् लभ्यादात्मविचारेण फलम् भूयोऽन्यतोऽस्ति वा भगवानुवाच सर्वासामपि वृत्तीनाम् समष्टिर्या समीरिता अहम् वृत्तेरमुष्यास्तु जन्मस्थानम् विमृश्यताम् एष आत्मविचारस्यान्न शास्त्रपरिशीलनम् अहङ्कारो विलीनस्यान्मूलस्थानगवेषणे आत्माभासस्त्वहङ्कारः स यदा सम्प्रलीयते आत्मा सत्योऽभितः पूर्णः केवलः परिशिष्यते सर्वक्लेशनिवृत्तिस्यात्फलमात्मविचारतः फलानामवधिः सोऽयमस्ति नेतोऽधिकम् फलम् अद्भुताः सिद्धयः साध्या उपायान्तरतश्चयाः ताः प्राप्तोऽपि भवत्यन्ते विचारेणैव निर्वृतः कार्ष्णिरुवाच एतस्यात्मविचारस्य प्राहुःकमधिकारिणम् अधिकारस्य सम्पत्तिः किम् ज्ञातुम् शक्यते स्वयम् भगवानुवाच उपासनादिभिः शुद्धम् प्राग्जन्म सुकृतेन वा दृष्टदोषम् मनो यस्य शरीरे विषयेषु च मनसाचरतो यस्य विषयेष्वरुचिर्भृशम् देहे चानित्यता बुद्धिस्तम् प्राहुरधिकारिणम् देहे नश्वरता बुद्धेर्वैराग्याद्विषयेषु च एताभ्यामेव लिङ्गाभ्याम् ज्ञेया स्वस्याधिकारिता कार्ष्णिरुवाच स्नानम् सन्ध्याजपो होमस्वाध्यायो देवपूजनम् सङ्कीर्तनम् तीर्थयात्रा यज्ञो दानम् व्रतानि च विचारे साधिकारस्य वैराग्याच्च विवेकतः किम् वा प्रयोजनाय स्युरुतकालविधूतये भगवानुवाच आरम्भिणाम् क्षीयमाणरागाणामधिकारिणाम् कर्माण्येतानि सर्वाणि भूयस्यै चित्तशुद्धये यत्कर्म सुकृतम् प्रोक्तम् मनोवाक्कायसम्भवम् तत्तु कर्मान्तरम् हन्ति मनोवाक्कायसम्भवम् अत्यन्तशुद्धमनसाम् पक्वानामधिकारिणाम् इदम् लोकोपकाराय कर्मजालम् भविष्यति परेषामुपदेशाय क्षेमाय च मनीषिणः पक्वाश्च कर्म कुर्वन्ति भयान्नादेशशास्त्रतः विचारप्रतिकूलानि न पुण्यानि न वर्षभा क्रियमाणान्यसङ्गेन भेदबुद्ध्युपवर्धिना न चाकृतानि पापाय पक्वस्यात्मविमर्शिनः स्वविमर्शो महत्पुण्यम् पावनानाम् हि पावनम् दृश्यते द्विविधा निष्ठा पक्वानामधिकारिणाम् त्याग एकान्तयोगाय परार्थम् च क्रियादरः कार्ष्णिर्वाच निर्वाणायास्ति चेदन्यो मार्ग आत्मविचारतः एको वा विविधस्तं मे भगवान् वक्तुमर्हति। भगवानुवाच एकः प्राप्तुं प्रयतते परः प्राप्तारपृच्छति। चिराय प्रथमो गच्छन् प्राप्तोऽत्यात्मानमन्ततः एकस्य ध्यानतश्चित्तमेकाकृति भविष्यति। एकाकृतित्वम् चित्तस्य स्वरूपे स्थितये भवेत्। अनिच्छयाप्यतोऽध्यायन्विन्दत्यात्मनि संस्थितिम् विचारकस्तु विज्ञाय भवेदात्मनि संस्थितः। ध्यायतो देवताम् मन्त्रमन्यद्वा लक्ष्यमुत्तमम् ध्येयमात्ममहाज्योतिष्यन्ततो लीनताम् व्रजेत्। गतिरेवम् द्वयोरेकाध्यातुश्चात्मविमर्शिनः ध्यायन्नेकः प्रशान्तस्यादन्यो विज्ञाय शाम्यति। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आत्मविचाराधिकारितदङ्गनिरूपणम् नाम सप्तमोऽध्यायः। अथाष्टमोऽध्यायः आश्रमविचारः। काष्ठैरेव परम् प्रश्नम् निशम्य भगवान् मुनिः चातुराश्रम्यसम्बन्धमधिकारम् न्यरूपयत्। ब्रह्मचारी गृहीवापि वा न प्रस्तोत वा यतिः। नारी वा वृषदो वापि पक्वो ब्रह्म विचारयेत्। सोपानवत्परम् प्राप्तुम् भविष्यत्याश्रमक्रमः। अत्यन्तपक्वचित्तस्य क्रमापेक्षा न विद्यते। गतये लोककार्याणामादिश्यन्त्याश्रमक्रमम्। आश्रमत्रयधर्माणाम् न ज्ञानप्रतिकूलता। सन्न्यासो निर्मलम् ज्ञानम् नकाशायो न मण्डनम्। प्रतिबन्धकबाहुल्यपारणायाश्रमो मतः। ब्रह्मचर्याश्रमे यस्य शक्तिरुद्रम्भते व्रतैः विद्यया ज्ञानवृद्ध्या च सपश्चात्रद्वरिष्यति। ब्रह्मचर्येण शुद्धेन गृहीत्वे निर्मलो भवेत्। सर्वेषामुपकाराय गृहस्थाश्रम उच्यते। सर्वथा वीतसङ्गस्य गृहस्थस्यापि देहिनः। परम् प्रस्फुरति ज्योतिस्तत्त्वमेवास्ति संशयः। तपसस्त्वाश्रमः प्रोक्तस्तृतीयः पण्डितोत्तमैः। अभार्यो वा सभार्यो वा तृतीयाश्रमभाग्भवेत्। तपसा दग्धपापस्य पक्वचित्तस्य योगिनः। चतुर्थ आश्रमः काले स्वयमेव भविष्यति। एष पागुक्त एवाब्दे त्वष्टमे द्वादशे पुनः। उपदेशो भगवतः सप्तमाष्टमयोरभूत्। इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे आश्रमविचारो नाम अष्टमोऽध्यायः। अथ नवमोऽध्यायः ग्रन्थिभेदकथनम्। चतुर्दशेष्टमे रात्रौ महर्षिम् पृष्टवानहम् ग्रन्थिभेदम् समुद्दिश्य विदुषान् यत्र संशयः। समाकर्ण्य मम प्रश्नम् रमणो भगवान् ऋषिः। ध्यात्वा दिव्येन भावेन किञ्चिदाहमहामहाः। शरीरस्यात्मनश्चापि सम्बन्धो ग्रन्थिरुच्यते। सम्बन्धेनैव शारीरम् भवति ज्ञानमात्मनः। शरीरम् जडमेतत्स्यादात्मा चैतन्यमिष्यते। उभयोरपि सम्बन्धो विज्ञानेनानुमीयते चैतन्यच्छायायाश्लिष्टम् शरीरम् तातचेष्टते निद्रादौ ग्रहणाभावादूह्यते स्थानमात्मनः सूक्ष्माणाम् विद्युदादीनाम् स्थूले तन्त्र्यादिके यथा तथा कलेपरे नाड्याम् चैतन्यज्योतिषो गतिः स्थलमेकमुपाश्रित्य चैतन्यज्योतिरुज्ज्वलम् सर्वम् भासयते देहम् भास्करो भुवनम् यथा व्याप्तेन तत्प्रकाशेन शरीरे तनुहूदयः स्थलम् तदेव हृदयम् सूरयः सम्प्रचक्षते नाडीशक्तिविलासेन चैतन्यांशुगतिर्मता देहस्य शक्तयः सर्वाः पृथन् नाडीरूपाश्रिताः चैतन्यम् तु पृथन् नाड्याम् ताम् सुषुम्नाम् प्रचक्षते आत्मनाडीम् परामेके परे त्वमृतनाडिकाम् सर्वम् देहम् प्रकाशेन व्याप्तो जीवोऽभिमानवान् मन्यते देहमात्मानम् तेन भिन्नम् च विष्टवम् अभिमानम् परित्यज्य देहे चात्मधियम् सुखीः विचारयेच्चेदेकाग्रो नाडीनाम् मथनम् भवेत् नाडीनाम् मथनेनैव आत्मा ताभ्यः पृथक्कृतः केवलामृताम् नाडीमाश्रित्य प्रज्वलिष्यति आत्मनाड्याम् यथा भाति चैतन्यज्योतिरुज्ज्वलम् केवलायाम् तदा नान्यदात्मनः सम्प्रभासते तान्यध्याध्वासमानम् वा न पृथक् प्रतिष्ठति जानाति स्पष्टमात्मानम् सदेहमिव पामरः आत्मैव भासते यस्य बहिरन्तश्च सर्वतः पामरस्येव रूपादिसभिन्नग्रन्थिरुच्यते नाडीबन्धोऽभिमानश्च द्वयम् ग्रन्थिरुदीर्यते नाडीबन्धेन सूक्ष्मोऽपि स्थूलम् सर्वम् प्रपश्यति निवृत्तम् सर्वनाडीभ्यो यदैकाम् नाडिकाम् श्रितम् भिन्नग्रन्थिरज्योतिरात्मभावाय कल्पते अग्नितप्तमयो गोलम् दृश्यतेऽग्निमयम् यथा स्वविचाराग्निसन्तप्तम् तथेदम् स्वयम् भवेत् शरीरादिदुषाम् पूर्ववासनानाम् क्षयस्तदा कर्तृत्वमशरीरत्वान्नैव तस्य भविष्यति कर्तृत्वाभावतः कर्म विनाशोऽस्य समीरितः तस्य वस्त्वन्तराभावात् संशयानामनुद्भवः भविता न पुनर्बद्धो विभिन्नग्रन्थिरेकदा सा स्थितिः परमाशक्तिः सा शान्तिः परमा मता इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ग्रन्थिभेदकथनम् नाम नवमोऽध्यायः अथ दशमोऽध्यायः सङ्घविद्या यतिनो योगनाथस्य महर्षिरमणस्य च दशमेऽत्र निबध्नीमः संवादम् सङ्घहर्षदम् योगनाथ उवाच साङ्घिकस्य च सङ्घस्य कः सम्बन्धो महामुने सङ्घस्य श्रेयसेनाथ तमेतम् वक्तुमर्हसि भगवानुवाच ज्ञेयः शरीरवत्सङ्घस्तत्तदाचारशालिनाम् अङ्गानि वात्रविद्येयाः साङ्घिकाः साधुसत्तमा अङ्गम् यथा शरीरस्य करोत्युपकृतीयते तथोपकारम् सङ्घस्य कुर्वन् जयति साङ्घिकः सङ्घस्य वाङ्मनःकायैरुपकारो यथा भवेत् स्वयम् तथा चरन् नित्यम् स्वकीयानपि बोधयेत् आनुकूल्येन सङ्घस्य स्थापयित्वा निजम् कुलम् सङ्घस्यैव ततो भूत्यै कुर्याद्भूतियुतम् कुलम् योगनाथ उवाच शान्तिम् केचित्प्रशंसन्ति शक्तिम् केचिन्मलेशिणः अनयोः को गुणोज्यायाम् सङ्घक्षेमकृते विभो भगवानुवाच स्वमनः शुद्धये शान्तिः शक्तिः सङ्घस्य वृद्धये शक्त्या सङ्घम् विधायोच्चैशान्तिम् संस्थापयेत्ततः योगनाथ उवाच सर्वस्यापि च सङ्घस्य नराणामृषिकुञ्जरा गन्तव्यम् समुदायेन किम् परम् धरणीतले भगवानुवाच समुदायेन सर्वस्य सङ्घस्य तनुधारिणाम् सौभ्रात्रम् समभावेन गन्तव्यम् परमुच्यते सौभ्रात्रेण परा शान्तिरन्योन्यम् देहधारिणाम् तदेयम् शोभते सर्वा भूमिरेकम् गृहम् यथा अभूत्पञ्चदशेघस्रे संवादः सोऽयमष्टमे योगनाथस्य यतिनो महर्षेश्च दयावतः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सङ्घविद्यानाम दशमोऽध्यायः अथ एकादशोऽध्यायः ज्ञानसिद्धिसामरस्य कथनम् षोडशे दिवसे रात्रौ विविक्ते मुनिसत्तमम् गुरुम् ब्रह्मविदाम् श्रेष्ठम् नित्यमात्मनि संस्थितम् उपगम्य महाभागम् सोऽहम् कैतवमानवम् रमणम् स्तुतवानस्मि दुर्लभज्ञानलब्धये त्वय्येव परमानिष्ठा त्वय्येव विशदा मतिः अम्भसामिव वाराशिर्विज्ञानानाम् त्वमास्पदम् त्वम् तु सप्तदशे वर्षे बाल्य एव महायशः लब्धवानसि विज्ञानम् योगिनामपि दुर्लभम् सर्वे दृश्या इमे भावा यस्य छायामयास्तव तस्य ते भगवन्निष्ठाम् को नु वर्णयितुम् क्षमः मज्जताम् घोरसंसारे व्यावृतानामितस्ततः दुःखम् महत्यतीर्षूणाम् त्वमेका परमा गतिः पश्यामि देवदत्तेन ज्ञानेन त्वाम् मुहुर्मुहुः ब्रह्मण्यानाम् वरम् ब्रह्मन् सुब्रह्मण्यम् नराकृतिम् न त्वम् स्वामी योनाथ न त्वम् क्षणिकपर्वते न त्वम् वेङ्कटशैलाग्रेशोणाद्रामसि वस्तुतः भूमविद्याम् पुराणाथ नारदाय महर्षये भवान् शुश्रूषमाणाय रहस्यामुपदिष्टवान् सनत्कुमारम् ब्रह्मर्षिम् त्वामाहुर्वेदवेदिनः आगमानाम् तु वेत्तारः सुब्रह्मण्यम् सुदर्शभम् केवलम् नाम भेदोऽयम् व्यक्तिभेदो न विद्यते सनत्कुमारस्कन्दश्च पर्यायौ तव तत्त्वतः पुरा कुमारिलो नाम भूत्वा ब्राह्मणसत्तमः धर्मम् वेदोदितम् नाथत्वम् संस्थापितवानसि जैनैर्व्याकुलिते धर्मे भगवन् द्रविडेषु च भूत्वा त्वम् ज्ञानसम्बन्धो भक्तिम् स्थापितवानसि अधुना त्वम् महाभागब्रह्मज्ञानस्य गुप्तये शास्त्रज्ञानेन सन्तृप्तैर्निरुद्धस्यागतोऽधराम् सन्देहा बहवो नाथ शिष्याणाम् वारितास्त्वया इमम् च मम सन्देहम् निवारयितुमर्हसि ज्ञानस्य चापि सिद्धीनाम् विरोधः किम् परस्परम् उदाहो कोऽपि सम्बन्धो वर्तते मुनिकुञ्जरा मयैवम् भगवान् दृष्टो रमणो नुतिपूर्वकम् गभीरया दृशा वीक्ष्यमामिदम् वाक्यमब्रवीत् सहजाम् स्थितिमारूढस्वभावेन दिने दिने तपश्चरति दुर्धर्षम् नालस्यम् सहजस्थितौ तपस्तदेव दुर्धर्षम् या निष्ठा सहजात्मनि तेन नित्येन तपसा भवेत् पाकः क्षणे क्षणे परिपाकेन कालेऽस्तु सिद्धयस्ता तपश्यतः प्रारब्धम् यदिताभिः स्याद्विहारो ज्ञानिनोऽपि च यथा प्रपञ्चग्रहणे स्वरूपान्नेतरन्मुनेः सिद्धयः क्रियमाणाश्च स्वरूपान्नेतरस्तथा भवेन्न यस्य प्रारब्धम् शक्तिपूर्णोऽप्ययम् मुनिः अतरङ्ग इवाम् बोधिर्न किञ्चिदपि चेष्टते नान्यम् मृगयते मार्गम् निसर्गादात्मनिस्थितः सर्वासामपि शक्तीनाम् समष्टिः स्वात्मनिस्थितिः अप्रयत्नेन सहजा स्थितिरुच्यते सहजायाम् स्थितोपाकाच्छक्तीनामुद्भवो मतः परिवृतोऽपि बहुभिर्नित्यमात्मनि संस्थितः घोरम् तपश्चरत्येव नतश्चैकान्तकामिता ज्ञानम् शक्तेरपेतयो मन्यते नैव वेदसः सर्वशक्तेभितः पूर्णे स्वस्वरूपे हि बोधवान् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्देवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानसिद्धिसामरस्य कथनम् नाम एकादशोऽध्यायः अथ द्वादशोऽध्यायः शक्तिविचारः एकोनविंशे दिवसे भारद्वाजो महामनाः कपालीकृतिशुद्ध्याय न पृच्छद्रमणम् गुरुम् कपाल्युवाच विषयी विषयो वृत्तिरितीदम् भगवंस्त्रिकम् ज्ञानिनाम् पामराणाम् च लोकयात्रासु दृश्यते पथकेन विशेषेण ज्ञानी पामरतोऽधिकः इमम् मे नाथ सन्देहम् निवर्तयितुमर्हसि भगवानुवाच अभिन्नो विषयीयस्य स्वरूपान्मनुदर्शभ व्यापारविषयौ भातस्तस्याभिन्नौ स्वरूपतः विभिन्नो विषयीयस्य स्वरूपादभिमानिनः व्यापारविषयौ भातस्तस्य भिन्नौ स्वरूपतः भेदाभासे विजानाति ज्ञान्यभेदम् तु तात्विकम् भेदाभासवशम् गत्वा पामरस्तु विभिद्यते कपाल्युवाच माथयस्मिन्निमे भेदाभासन्ते त्रिपुटीमयाः शक्तिमद्वा स्वरूपम् तदु काहो शक्तिवर्जितम् भगवानुवाच वत्सयस्मिन्निमे भेदाभासन्ते त्रिपुटीमयाः सर्वशक्तम् स्वरूपम् तदाहुर्वेदान्तवेदिनः कपाल्युवाच ईश्वरस्य तु या शक्तिर्गीता वेदान्तवेदिभिः अस्ति वाचलनम् तस्यामाहोऽस्मिन्नाथ नास्ति वा भगवानुवाच शक्तेः सञ्चलनादेव लोकानाम् तातसम्भवः चलनस्याश्रयो वस्तु न सञ्चलति कर्हिचित् अचलस्य तु यच्छक्तेश्चलनम् लोककारणम् तामेवाचक्षते मायामनुर्वाच्याम् विपश्चितः चञ्चलत्वम् विषयिणो यथार्थमिव भासते चलनम् न नरश्रेष्ठस्वरूपस्य तु वस्तुतः ईश्वरस्य च शक्तेश्च भेदो दृष्टिनिमित्तकः मिथुनम् त्विदमेकम् स्यादृष्टिश्चेदुपसंहृता कपाल्युवाच व्यापार ईश्वरस्यायम् दृश्यब्रह्माण्डकोटिकृत् नित्यः किमथवा नित्यो भगवान् वक्तुमर्हति भगवानुवाच निजया परया शक्त्या चलन्नप्यचलः परः केवलम् मुनिसंवेद्यम् रहस्यमिदमुत्तमम् चलत्वमेव व्यापारो व्यापारः शक्तिरुच्यते शक्त्या सर्वमिदम् दृश्यम् ससर्ज परमः पुमान् व्यापारस्तु प्रवृत्तिश्च निवृत्तिरिति यद्विधा निवृत्तिस्था यत्र सर्वमात्मैवाभूदिति श्रुतिः नानात्वम् द्वैतकालस्थम् गम्यते सर्वमित्यतः अभूदिति पदेनात्र व्यापारः कोऽपि गम्यते आत्मैवेति विनिर्देशाद्विशेषाणाम् समन्ततः आत्मन्नेवोपसंहारस्तज्जातानाम् प्रकीर्तितः विनाशक्तिम् नरश्रेष्ठस्वरूपम् न प्रतीयते व्यापार आश्रयश्चेति द्विनामाशक्तिरुच्यते व्यापारो विश्वसर्गादिकार्यमुक्तम् मनीषिभिः आश्रयोद्विपदाम् श्रेष्ठस्वरूपान्नातिरिच्यते स्वरूपमन्यसापेक्षम् नैव सर्वात्मकत्वतः शक्तिम् वृत्तिम् स्वरूपम् च य एवम् वेदवेदसः वृत्तेरभावे तु सतो नानाभावो न सिध्यति सत्ता शक्यतिरिक्ता चेद्वृत्तेर्नैव समुद्भवः यदि कालेन भविता जगतः प्रलयो महान् अभेदेन स्वरूपेयम् व्यापारो लीनवद्भवेत् सर्वोऽपि व्यवहारोऽयम् न भवेच्छक्तिमन्तरा न सृष्टिर्नापि विज्ञानम् यदेतत्त्रिपुरीमयम् स्वरूपमाश्रयत्वेन व्यापारः सर्गकर्मणा नामभ्यामुच्यते त्वाभ्याम् शक्तिरेका परात्परा लक्षणम् चलनम् येषाम् शक्तेस्तेषाम् तदाश्रयः यत्किञ्चित् परमम् वस्तु वक्तव्यम् स्यान्नरर्षभा तदेकम् परमम् वस्तु शक्तिमेके प्रचक्षते स्वरूपम् केऽपि विद्वांसो ब्रह्माण्ये पुरुषम् परे वत्स सत्यम् द्विधा गम्यम् लक्षणेन च वस्तुतः लक्षणेनोच्यते सत्यम् वस्तुतस्त्वनुभूयते तस्मात्स्वरूपविज्ञानम् व्यापारेण च वस्तुतः ताटस्थेन च साक्षाच्च द्विविधम् सम्प्रचक्षते स्वरूपमाश्रयम् प्राहुर्व्यापारम् तातलक्षणम् वृत्त्या विज्ञाय तन्मूलमाश्रये प्रतिष्ठति स्वरूपम् लक्षणोपेतम् लक्षणम् च स्वरूपवत् तादात्मेनैव सम्बन्धस्त्वनयोः सम्प्रकीर्तितः ततस्थलक्षणेनैवम् व्यापाराख्येन मारिषा यतो लक्ष्यम् स्वरूपम् स्यान्नित्यव्यापारवत्ततः व्यापारो वस्तु नो नान्यो यदि पश्यसि तत्त्वतः इदम् तु भेदविज्ञानम् सर्वम् काल्पनिकम् मतम् शक्त्युल्लासाह्वयासेयम् सृष्टिस्यादीशकल्पना कल्पनेयमतीता चेत् स्वरूपमवशिष्यते इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे शक्तिविचारो नाम द्वादशोऽध्यायः अथ त्रयोदशोऽध्यायः सन्न्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणम् अत्रीणामन्वयज्योत्स्ना वसिष्ठानाम् कुलस्नुषा महादेवस्य जननी धीरस्य ब्रह्मवेदिनः प्रतिमानम् पुरन्ध्रीणाम् लोकसेवाव्रते स्थिता बिभ्राणामहतीम् विद्याम् ब्रह्मादिविबुधस्तुताम् दक्षिणे विन्ध्यतशक्तेस्तारिण्या आदिमा गुरुः तपःसखी मे दयिता विशालाक्षी यशस्विनी प्रश्नद्वयेन रमणाः स्वयम् विश्वहितम् मुनिम् अभ्यगच्छद दुष्टाङ्गी निक्षिप्तेन मुखे मम आत्मस्थितानाम् नारीणामस्ति चेत् प्रतिबन्धकम् गृहत्यागेन हंसे त्वम् किमु स्याच्छास्त्रसम्मतम् जीवन्त्या एव मुक्ताया देहपातो भवेद्यदि दहनम् वा समाधिर्वा कार्यम् युक्तमनन्तरम् प्रश्नद्वयमिदम् श्रुत्वा भगवान् ऋषिसत्तमः अवोचम् निर्णयम् तत्र सर्वशास्त्रार्थतत्त्ववित् स्वरूपे वर्तमानानाम् पक्वानाम् योषितामपि निवृत्तत्वान्निषेधस्य हंसेत्वम् नैव दुष्यति मुक्तत्वस्याविशिष्टत्वाद्बोधस्य च वधूरपि जीवन्मुक्ता न दाह्या स्यात्तद्देहो हि सुरालयः ये दोषा देहदहने पुंसो मुक्तस्य संसृताः मुक्तायाः सन्ति ते सर्वे देहदाहे च योषितः एकविंशेऽन्निगीतो भूदयमर्थो मनीषिणा अधिकृत्य ज्ञानवतीम् रमणेन महर्षिणा इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सन्न्यासे स्त्रीपुरुषयोस्तुल्याधिकारनिरूपणम् नाम त्रयोदशोऽध्यायः अथ चतुर्दशोऽध्यायः जीवम् मुक्तिविचारः निशायामेकविंशेऽह्नि भारद्वाजो विदाम्बरः प्राज्ञः शिवकुलोपाधिर्वैदर्भो वदताम्बरः जीवन्मुक्तिम् समुद्दिश्य महर्षिम् परिपृष्टवान् अथ सर्वेषु शृण्वत्सु महर्षिर्वाक्यमब्रवीत् शास्त्रीयैर्लौकिकैश्चापि प्रत्ययैरविचारिता स्वरूपे सुदृढा निष्ठा जीवन्मुक्तिरुदाहृता मुक्तिरेकविधैवस्यात्मज्ञानस्याविशेषतः शरीरस्थम् मुक्तबन्धम् जीवन्मुक्तम् प्रचक्षते ब्रह्मलोकगतो मुक्तः श्रूयते निगमेषु यः अनुभूतौ न भेदोऽस्ति जीवन्मुक्तस्य तस्य च प्राणाः समवधीयन्ते यस्यात्रैवमहात्मनः तस्याप्यनुभवो विद्वन्नेतयोरुभयोरिव साम्यात् स्वरूपनिष्ठाया बन्धहानेश्च साम्यतः मुक्तिरेकमिदेव स्याद्भेदस्तु परबुद्धिगः मुक्तो भवति जीवन्यो महात्मात्मनि संस्थितः प्राणाः समवलीयन्ते तस्यैवात्र नरर्षभ जीवन्मुक्तस्य कालेन तपसः परिपाकतः स्पर्शभावोऽपि सिद्धः स्याद्रूपे सत्यपि कुत्रचित् भूयश्च परिपाकेन रूपाभावोऽपि सिद्ध्यति केवलम् चिन्मयो भूत्वा ससिद्धो विहरिष्यति शरीरसंशयम् सिद्ध्योर्द्वयमेतम् नरोत्तम अल्पेनापि च कालेन देवतानुग्रहाद् भवेत् वेदमेतम् पुरस्कृत्य तारतम्यम् न सम्पदि देहवानशरीरो वा मुक्त आत्मनि संस्थितः नाडीद्वारार्चिराद्येन मार्गेणोऽर्ध्वगतिर्नरः तत्रोत्पन्नेन बोधेन सद्यो मुक्तो भविष्यति उपासकस्य सुतराम् पक्वचित्तस्य योगिनः ईश्वरानुग्रहात् प्रोक्ता नाडीद्वारोत्तमा गतिः सर्वेषु कामचारोऽस्य लोकेषु परिकीर्तितः इच्छयानेकदेहानाम् ग्रहणम् चाप्यनुग्रहः कैलासम् केऽपि मुक्तानाम् लोकमाहुर्मनीषिणः एके वदन्ति वैकुण्ठम् परेत्तादित्यमण्डलम् मुक्तलोकाश्च ते सर्वे विद्वन्भूम्यादिलोकवत् चित्रवैभवया शक्त्या स्वरूपे परिकल्पिताः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे जीवन्मुक्तिविचारो नाम चतुर्दशोऽध्यायः अथ पञ्चदशोऽध्यायः श्रवणमननिधिध्यासननिरूपणम् श्रवणम् नाम किन्नाथमननम् नाम किम् मदम् किम् वा मुनिकुलश्रेष्ठनिधिध्यासनमुच्यते इत्येवम् भगवान् पृष्टो मया ब्रह्मविदाम्बरः द्वाविंशे दिवसे प्रारब्रवीच्छिष्य संसदि वेदशीर्षस्थवाक्यानामर्थव्याख्यानपूर्वकम् आचार्याच्छ्रवणम् केचिच्छ्रवणम् परिचक्षते अपरे श्रवणम् प्राहुराचार्याद्विदितात्मनः गिराम् भाषामयीनाम् च स्वरूपम् बोधयन्ति याः श्रुत्वा वेदान्तवाक्यानि निजवाक्यानि वा गुरोः जन्मान्तरीयपुण्येन ज्ञात्वा वोभयमन्तरा अहम् प्रत्ययमूलम् त्वम् शरीरादेर्विलक्षणः इदीनम् श्रवणम् चित्ताच्छ्रवणम् वस्तुतो भवेत् वदन्ति मननम् केचिच्छास्त्रार्थस्य विचारणम् वस्तुतो मननम् तातस्वरूपस्य विचारणम् विपर्यासेन रहितम् संशयेन च मानदा कैश्चिद्ब्रह्मात्मविज्ञानम् निधिध्यासनमुच्यते विपर्यासेन रहितम् संशयेन च यद्यपि शास्त्रीयमैक्यविज्ञानम् केवलम् नानुभूतये संशयश्च विपर्यासो निवार्येते उभावपि अनुभूत्यैव वासिष्ठनशास्त्रशतकैरपि शास्त्रम् श्रद्धावदोहन्यात् संशयम् च विपर्ययम् श्रद्धायाः किञ्चिदूनत्वे पुनरभ्युदयस्तयोः मूलच्छेदस्तु वासिष्ठस्वरूपानुभवेतयोः स्वरूपे संस्थितिस्तस्मान्निदिध्यासनमुच्यते बहिः सञ्चरतस्तातः स्वरूपे संस्थितिम् विना अपरोक्षो भवेद्बोधो न शास्त्रशतचर्चया स्वरूपसंस्थितिस्याच्चेत्सहजा कुण्डिदर्शः सा मुक्तिः सा परा निष्ठा साक्षात्कारयीरितः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्ते वासिनो वासिष्ठस्य गणपतेरुपनिबन्धे श्रवणमननिध्यासननिरूपणम् नाम पञ्चदशोऽध्यायः अथ षोडशोऽध्यायः भक्तिविचारः अथ भक्तिम् समुद्दिश्य पृष्टः पुरुषसप्तमः अभाषतमहाभागो भगवान् रमणो मुनिः आत्मा प्रियः समस्तस्य प्रियम् नेतरदात्मनः अच्छिन्नातैलधारावत् प्रीतिर्भक्तिरुदाहृता अभिन्नम् स्वात्मतः प्रीत्या विजानातीश्वरम् कविः जानन्नप्यपरोभिन्दम् लीन आत्मनि तिष्ठति वहन्ति तैलधारावद्या प्रीतिः परमेश्वरे अनिच्छतोऽपि सा बुद्धिम् स्वरूपम् नयति ध्रुवम् परिच्छिन्नम् यदात्मानम् स्वल्पज्ञम् चापि मन्यते भक्तो विषयिरूपेण तदा क्लेशनिवृत्तये व्यापकम् परमम् वस्तु भजते देवता धिया भजंश्च देवता बुद्ध्या तदेवान्ते समश्नुते देवताया नरश्रेष्ठनामरूपप्रकल्पनात् ताभ्याम् तु नामरूपाभ्याम् नामरूपे विजेष्यति भुक्तौ तु परिपूर्णायामलम् श्रवणमेकदा ज्ञानाय परिपूर्णाय तदा भक्तिः प्रकल्पते धाराव्यपेताया भक्तिः साविच्छिन्नेति कीर्त्यते भक्तेः परस्याः सा हेतुर्भवतीति विनिर्णयः कामाय भक्तिम् कुर्वाणः कामम् प्राप्याप्यनिर्वृतः शाश्वताय सुखायान्ते भजते पुनरीश्वरम् भक्तिः कामसमेतापि कामाप्तौ न निवर्तते श्रद्धा वृद्धा परे पुंसि भूय एवाभिवर्धते वर्धमाना च सा भक्तिः काले पूर्णा भविष्यति पूर्णया परया भक्त्या ज्ञानेनैव भवन्तरेत् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्ते वासिनो वासिष्ठस्य गणपतेरुपनिबन्धे भक्तिविचारो नाम षोडशोऽध्यायः अथ सप्तदशोऽध्यायः ज्ञानप्राप्तिविचारः पञ्चविंशे तु दिवसे वैदर्भो विदुषाम्बरः प्रश्रयावनतो भूत्वा मुनिम् भूयोऽपि पृष्टवान् वैदर्भ उवाच क्रमेणायाति किम् ज्ञानम् किञ्चित् किञ्चिद्दिने दिने एकस्मिन्नेव काले किम् पूर्णमाभाति भानुवत् भगवानुवाच क्रमेणायाति न ज्ञानम् किञ्चित् किञ्चित् दिने दिने अभ्यासपरिपाकेन भासते पूर्णमेकदा वैदर्भ उवाच अभ्यासकाले भगवन् वृत्तिरन्तर्बहिस्तथा याता यातम् प्रकुर्वाणा याते किम् ज्ञानमुच्यते भगवानुवाच अन्तर्याता मतिर्विद्वम् बहिरायाति चेत् पुनः अभ्यासमेव तामाहुर्ज्ञानम् ह्यनुभवोच्युरः वैदर्भ उवाच ज्ञानस्य मुनिशार्दूलभूमिका काश्चिदीरिताः शास्त्रेषु विदुषाम् श्रेष्ठैः कथम् तासाम् समन्वयः भगवानुवाच शास्त्रोक्ता भूमिकाः सर्वा भवन्ति परबुद्धिगाः मुक्तिभेद इव प्राज्ञानमेकम् प्रजानताम् चर्याम् देहेन्द्रियादीनाम् वीक्ष्यारब्धानुसारिणीम् कल्पयन्ति परे भूमिस्तारतम्यम् न वस्तुतः वैदर्भ उवाच प्रज्ञानमेकदा सिद्धम् सर्वाज्ञाननिबर्हणम् तिरोधत्ते किमज्ञानात् सङ्गादम् कुरितात् पुनः भगवानुवाच अज्ञानस्य प्रतिद्वन्द्विन परा भूयते पुनः प्रज्ञानमेकदा सिद्धम् भरद्वाज कुलोद्वः इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे ज्ञानप्राप्तिविचारो नाम सप्तदशोऽध्यायः अथ अष्टादशोऽध्यायः सिद्धमहिमानुकीर्तनम् वरपराशरगोत्रसमुद्भवम् वसुमतीसुरसङ्घयशस्करम् विमलसुन्दरपण्डितनन्दनम् कमलपत्रविशालविलोचनम् अरुणशीलगताश्रमवासिनम् परमहंसमनञ्जनमच्युतम् करुणया दधतम् व्यवहारिताम् सततमात्मनि संस्थितमक्षरे अखिलसंशयवारणभाषणम् भ्रममरद्विरदाङ्कुशवीक्षणम् अविरतम् परसौख्यधृतोद्यमम् निजतनूविषयेष्वलसालसम् परिणताम्रफलप्रभविग्रहम् चलतरेन्द्रियनिग्रहसग्रहम् अमृतचिद्धनवल्लिपरिग्रहम् वितवचोरचितागमसङ्ग्रहम् अमलदीप्ततरात्ममरीचिभिः निजकरैरिव पङ्कजबान्धवम् पदजुषाम् जडभावमनेहसा परिहरन्तमनन्तगुणाकरम् मृदुतमम् वचने दृशिशीतलम् विकसितम् वदने सरसीरुहे मनसि शून्यमहशशिसन्निभे हृदिलसन्तमनन्त इवारुणम् अदयमात्मतनौ कठिनम् व्रते परुषचित्तमलम् विषयव्रजे ऋषिमरोषमपेतमनोरथम् धृतमदङ्घनचिल्लहरीवशात् विगतमोहमलोभमभावनम् शमितमत्सरमुत्सविनम् सदा भवमहोदधितारणकर्मणि प्रतिफलेन विनैव सदोद्यतम् माता ममेति नगराजसुतोरुपीठम् नागानने भजति याहि पिता ममेति अङ्कम् हरस्य समवाप्य शिरस्य नेना सञ्चुम्बितस्य गिरिरन्धकृतो विभूतिम् वेदादिपाकदमनोत्तरकच्छपेशैः युक्तैर्धराधरसुषुप्त्यमरेश्वरैश्च सूक्ष्मामृता युगमृतेन सह प्रणत्या सम्पन्नशब्दपटलस्य रहस्यमर्थम् दण्डम् विनैव यतिनम् भतदण्डपाणिम् दुःखाभ्युतारकमलिम् भततारकस्य त्यक्त्वा भवम् भवमहो सततम् भजन्तम् हंसम् तथापि गतमानससङ्गरागम् धीरत्वसम्पदि सुवर्णगिरेरनूनम् वारान्निधेरधिकमेव गभीरतायाम् शान्तौ जयन्तमचलामखिलस्य धात्री दान्तौ निदर्शनमशान्तिकथादविष्ठम् नीलारविन्दसुहृदा सदृशम् प्रसादे तुल्यम् तथा महसितो यजबान्धवेन ब्राह्म्याम् स्थितौ तु वितरम् वटमूलवासम् संसारयन्तमचलन्तमनूदितम् मे यस्याधुनापि रमणीरमणीयभावा गीर्वाणलोकभृतना शुभवृत्तिरूपा संशोभते शिरसि नापि मनोजगन्धः तत्तादृशम् गृहीणमप्यधिपञ्यतीनाम् वन्दारुलोकवरदम् नरदन्ति नोऽपि मन्त्रेश्वरस्य मातो गुरुताम् वहन्तम् मन्दारवृक्षमिव सर्वजनस्य पादत् छायाम् श्रितस्य परितापमपाहरन्तम् यस्तन्त्रवार्तिकमनेकविचित्रयुक्ति संशोभितम् निगमजीवनमातताना भट्टस्य तस्य बुधसंहतिसंस्तुतस्य वेषान्तरम् तु निगमान्तवचो विचारी वेदशीर्षजयसारसङ्ग्रहम् पञ्चरत्नमरुणाचलस्य यः गुप्तमल्पमपि सर्वतो मुखम् सूत्रभूतमतनोदिमम् गुरुम् देववाचि सुतरामशिक्षितम् काव्यगन्धरहितम् च यद्यपि ग्रन्थकर्मणि तथापि संस्फुरत् भाषितानुचरभावसञ्चयम् लोकमातृकुचदुग्धपायिनः शङ्करस्तव कृतो महाकवेः द्राविडद्विजशिशोर्नटद्गिरो भूमिकान्तरमपारमेधसम् भूतले द्विह तृतीयमुद्भवम् क्रौञ्च भूमिधररन्धकारिणः ब्रह्मनिष्ठितदशाप्रदर्शनात् युक्तिवादतिमिरस्य शान्तये कुम्भयोनिमुखमौनि पूजिते द्राविडे वचसि विश्रुतम् कविम् दृष्टवन्तमजरम् परम् महः केवलम् धिषणया गुरुम् विना बालकेऽपि जडगोपकेऽपि वा वानरेऽपि शुनिवाखलेऽपि वा पण्डितेऽपि पदसंश्रितेऽपि वा पक्षपातरहितम् समेक्षणम् शक्तिमन्तमपि शान्तिसंयुतम् भक्तिमन्तमपि भेदवर्जितम् वीतरागमपि लोकवत्सलम् देवतांशमपि नम्रचेष्टितम् एष यामि पितुरन्तिकम् ममान्वेषणम् तु न विधीयतामिति संविलिख्य गृहतो विनिर्गतम् शोणशैलचरणम् समागतम् ईदृशम् गुणगणैरभिरामम् प्रश्रयेण रमणम् भगवन्तम् सिद्धलोकमहिमानमपारम् पृष्टवानमृतनाथयतीन्द्रः आहतम् स भगवानगवासी सिद्धलोकमहिमा तु दुरूहः ते शिवेन सदृशाः शिवरूपाः शक्नुवन्ति च वराण्यपि दातुम् इति श्रीरमणगीतासु ब्रह्मविद्यायाम् योगशास्त्रे रमणान्तेवासिनो वासिष्ठस्य गणपतेरुपनिबन्धे सिद्धमहिमानुकीर्तनम् नाम अष्टादशोऽध्यायः हरिः ॐ